इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः सुरेश चन्द शर्मा। अथ वार्ताः। राष्ट्रपति पदासीना द्रौपदी मुर्मुः, प्रधानमन्त्री नरेन्द्र मोदी च तेलंगाना राज्यस्य गुलजार हाउस इति स्थले दुरापादितम् अग्निकाण्डम्। अथ महाराष्ट्रस्य शोलापुरे यन्त्रागारे दुरापादितम् अग्निकाण्डम् चाभिलक्ष्य शोकम् प्रकटितवन्तौ। राष्ट्रपति पदासीना द्रौपदी मुर्मुः संचारतन्त्रपटले समुल्लिखितवती यत् अग्निकाण्डेन जनानां मृत्योः सूचना अतीव दुःखदायी। तया सर्वेभ्यः शोकसन्तप्तपरिवारेभ्यः स्वीय संवेदना प्रकटिता। अथ हताहतानां शीघ्रस्वास्थ्यलाभाय प्रार्थना कृता। प्रधानमन्त्री नरेन्द्रमोदी मृतकानां परिजनेभ्यः प्रधानमन्त्री राष्ट्रियकोषात् 2,00,000 रूप्यकाणाम् अनुग्रहराशेः अथ व्रणितेभ्यः 50,000 रूप्यकाणाम् अनुग्रहराशेः घोषणां कृतवान्। केन्द्रीयः सूचना प्रसारण राज्यमन्त्री डॉ एल मुरुगन इत्यसौ गतदिने बेंगलुरुनगरे मन्त्रालयस्य संचारतन्त्रीय एकांशानां कार्यान्वयनस्य समीक्षां कृतवान्। असौ वरिष्ठाधिकारिभिः समं मन्त्रिणां कृतवान्। गतिविधीनां विषये विस्तृतां सूचनामपि प्राप्तवान्। असौ दूरदर्शनस्य विभिन्न कार्यक्रमाणां विषये अपि विस्तृतां सूचनां गृहीतवान्। असौ एक पेड़ मा के नाम इति कार्यक्रमान्तर्गतं दूरदर्शन केन्द्र परिसरे पादपारोपणमपि कृतवान्। भारतीय जनता पार्टी इति दलेन गतदिने राष्ट्रिय राजधान्यां विभिन्नेषु क्षेत्रेषु त्रिवर्ण ध्वज परायात्रायाः आयोजनं कृतम्, यत्र पाकिस्तानं विरुध्य ऑपरेशन सिन्दूर इति सैन्याभियानस्य सफलताम् अभिलक्ष्य हर्षोल्लासः प्रकटितः, सशस्त्रबलानां सम्मानमपि तत्र कृतम्। आरकेपुरम् इति क्षेत्रे एकां जनसभां नवदेहल्याः सांसद महोदया बांसुरी स्वराजः इत्येषा सम्बोधितवती। प्रोक्तवती च यत् एतस्यां यात्रायां महिलानां पूर्णसमर्थनं प्राप्तम्। अत्र महिलाः ऑपरेशन सिन्दूर इति सैन्याभियानम् आलक्ष्य ऐक्यभावना प्रकटनाय भारतीय सशस्त्रबलेभ्यः धन्यवाद ज्ञापनाय च आगतवत्यः। बांसुरी स्वराजः प्रोक्तवती यत् ऑपरेशन सिन्दूर इति सैन्याभियानं शक्ति शौर्य न्याय संकल्पं प्रदर्शयति।
भारत की मातृशक्ति आर्म फोर्सेस का धन्यवाद करने के लिए आदरणीय प्रधानमंत्री श्री नरेंद्र मोदी जी का धन्यवाद करने के लिए आई है। सिंदूर केवल श्रृंगार का पर्याय नहीं, शक्ति का पर्याय है, शौर्य का पर्याय है और ऑपरेशन सिन्दूर अब न्याय का संकल्प है।
भारतीय ऋतु विज्ञान विभागेन पूर्वोत्तर भारते, पश्चिम बंगाले, सिक्किम प्रदेशे च आगामीषु 5 दिवसेषु झंझावात वायु विद्युत द्योतेन सह अतिवृष्टेः अनुमानं प्रकटितम्। कर्णाटक, कोंकण, गोवा, केरल क्षेत्रेषु अतिवृष्टेः संभावना भारतीय ऋतु विज्ञान विभागेन प्रकटिता। केन्द्रीयः गृहमन्त्री अमितशाहः प्रोक्तवान् यत् नरेन्द्रमोदिनः प्रशासनेन विगतेषु 10 वर्षेषु विभिन्नाभिः योजनाभिः स्वास्थ्यक्षेत्रे अभूतपूर्वपरिवर्तनानि कृतानि। अन्ते च क्रीडावार्तासु। इण्डियन् प्रीमियर् लीग् इत्येतस्यां क्रिकेट् लीग् प्रतिस्पर्धायां गतदिने गुजरात टाइटन्स् इत्येतेन दलेन देहली कैपिटल्स् इति दलं 10 स्तोभपुरस्सरं पराजितम्। स्पर्धायां प्रथमं दण्डेन क्रीडयता देहली कैपिटल्स् इति दलेन एकन्यून 200 धावनांकाः समर्जिताः। प्रत्युत्तरे गुजरात टाइटन्स् इत्येतेन दलेन सहजतया एव लक्ष्यं समधिगतम्। गुजरात टाइटन्स् इति दलेन सहजतया एव लक्ष्यं समधिगतम्, यत्र साई सुदर्शनः इत्येतस्य शतकीयं प्रदर्शनमपि अभूतपूर्वम् आसीत्। प्रतिस्पर्धायाम् अद्य लखनऊ सुपर जायंट्स सनराइजर्स हैदराबाद इत्येतयोः दलयोः मध्ये लखनऊ नगरस्थे इकाना क्रिकेट क्रीडांगणे सायं 7:30 वादने द्वन्द्वं स्यात् इति वार्ताः।